या इन्द्रभुजाभरस्वराभाङ् असुरेभ्यः स्तोतारमिन्मघवन्नस्य वर्धजजे चत्वे वृक्तपरिषः यमिन्द्रदधिषे त्वमश्वङ्गाम् भागमव्यजम् यजमाने सुन्वति दक्षिणावतिदस्मिन् दन्धे हिमापणौ य इन्द्रसस्त्यौ व्रतो नुष्वापमदेवजः स्वैष एवैर्ममरत्पाश्यम् व्रजम् सरतर्धे हितन्दताः यच्छक्रासि परावति यदर्वावतिव्रत्रहन् अतस्त्वागेर्भर्जुगजिन्द्रकेशभः सुताभाम् आविवासते यत्त्वासि रोचने दिवः समुद्रस्याधिविष्टपि यत्त्वार्थिवे सदने वृत्रहन्तमजदन्तरिक्ष आगहि स नः सोमेषु सोमपाः सुतेषु शवसस्पते मादजस्वराधसा सोनृता पतेन्द्रराजा परीडसा मान इन्द्रपरा मृणग्भवानः स धमाद्याः त्वन्न ओते त्वमिन्न आप्यम् मान इन्द्रपरा मृणक अस्मे इन्द्रसचा सुते निषदा पीतजे मधो कृथे चरित्रे मघवन्नवो महदस्मे इन्द्रसचा सुते नत्वा देवास आशतनमर्त्यासो अद्रिवः विश्वा जाता निशवसा बिभोरसि नत्वा देवास आशत विश्वाः प्रतना अभिभोतरन्नरम् सजोस्तदक्षुरिन्द्रम् जजनुश्च राजसे क्रत्वा वरिष्ठम् वर आमुरिमुतोऽग्रमोजिष्ठम् तपसम् दरस्विनम् समीम् रेभासो अस्वरन्निन्द्रम् सोमस्य पीतजे स्वर्पतिम् यदीम् वृधे धृतौ रतो ह्योजसा समोदिभिः नेमिन्नमन्त्य चक्षुषा मेषम् विप्रा अभिस्वरा सुदीतजो वो अद्रोऽपिकर्णे तरस्विनः समृक्मभिः तमिन्द्रम् जोहवेमि मघवानमुग्रम् सत्रा दधा नमः प्रतिष्कृतम् शवांसि मम्हिष्ठो गेर्भिराजयज्ञजो भवर्तद्राजे नो विश्वा सुवधा कृणोत वज्रे त्वम्बुर इन्द्रजिगदे नाव्योजसा शविष्टचक्रनाशयद्धि त्वद्विश्वा निभुवनानि वज्रन्द्यावा रेजयते पृथिवी च भीषा तन्मरतमिन्द्रशोरचित्रपात्तमो न वज्रन्दुरिदादिपरशिभोरि कदा न इन्द्रराज आदशस्येर्विश्वस्न्यस्य स्पृहजा यस्य राजन्